ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। श्रीशुक उवाच। अथ सर्वगुणोपेतः कालः परमशोभनः, यर्येवाजनजन्मर्क्षम् शान्तर्क्षग्रहतारकम्, दिशः प्रसेदुर्गगनम् निर्मलोडुगणोदयम्, महीमङ्गलभूयिष्ठ पुरग्रामव्रजाकरा, नद्यः प्रसन्नसलिलार्हदा जलरुहश्रियः, द्विजालिकुलसन्नादस्तबकावनराजयः, ववौ वायुः सुखस्पर्शः पुण्यगन्धवः शुचिः, अग्नयश्च द्विजातीनाम् शान्तास्तत्र समिन्धत, मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम्, जायमाने जने तस्मिन्ने दुर्दुन्दुभयो दिवि, जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः, विद्याधर्यश्च नन्ऋतुरप्सरोभिः समम् तदा, मुमुचुर्मुनयो देवा सुमनांसि मुदान्विताः, मन्दम् मन्दम् जलधरा जगर्जुरनुसागरम्, निशीथे तम उद्भूते जायमाने जनार्दने, देवक्याम् देवरूपिण्याम् विष्णुः सर्वगुहाशयः, आविरासीद् यथा प्राच्याम् दिशीन्दुरिव पुष्कलः, तमद्भुतम् बालकमम्बुजे क्षणम् चतुर्भुजम् शङ्खगदार्युदायुधम्, श्रीवत्सलक्ष्मम् गलशोभिकौस्तुभम् पीताम्बरम् सान्द्रपयोदसौभगम्, महारवैदुर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम्, उद्दामकाञ्च्यम् गदकङ्कणादिभिर्विरोचमानम् वसुदेव ऐक्षत, सविस्मयोत्फुल्लविलोचनो हरिम् सुतम् विलोक्यानकदुन्दुभिस्तदा, कृष्णावतारोत्सवसम्भ्रमो स्पृशन् मुदा द्विजेभ्यो युतमाप्लुतो गवाम्, अथैनमस्तौ दवधार्य पूरुषम् परम् नताङ्गः कृतधी कृताञ्जलिः, स्वरोचिषा भारतसूतिका गृहम् विरोचयन्तम् गतभिः प्रभाववित्। वसुदेव उवाच। विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः, केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक्, स एव स्वप्रकृत्येदम् सृष्ट्वाग्रे त्रिगुणात्मकम्, तदनु त्वम् यः प्रविष्टः प्रविष्ट इव भाव्यसे, यथे मे विकृताभावास्तथा ते विकृतैः सह, नानावीर्याः पृथग्भूता विराजम् जनयन्ति हि, सन्निपत्य समुत्पाद्य दृश्यन्ते नुगता इव, प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः, एवम् भवान् बुद्ध्यनुमेयलक्षणैर्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः, अनावृतत्वात् बहिरन्तरम् न ते सर्वस्य सर्वात्मन आत्मवस्तुनः, य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतो बुधः, विनानुवादम् न च तन्मनीषितम् सम्यक् यतस्त्यक्तमुपाददत्पुमान्, त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात्, त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वदाश्रयत्वादुपचर्यते गुणैः, सत्वम् त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लम् खलु वर्णमात्मनः, सर्गाय रक्तम् रजसोपब्रह्मितम् कृष्णम् च वर्णम् तमसा जनात्यये, त्वमस्य लोकस्य विभोरिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर, राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूयमाना निह निश्यसे च मुः, अयम् त्वसभ्यस्तव जन्मनौ गृहे श्रुत्वा ग्रजांस्ते न्यवधीत् सुरेश्वर, सदेवतारम् पुरुषैः समर्पितम् श्रुत्वाधुनैवाभिसरत्युदायुधः। श्रीशुक उवाच। अथैनमात्मजम् वीक्ष्य महापुरुषलक्षणम् देवकी तमुपाधावत् कंसाद्भीता शुचिस्मिता, देवक्युवाच। रूपम् यत्तत् प्राहुरव्यक्तमाद्यम् ब्रह्म ज्योतिर्निर्गुणम् निर्विकारम्, सत्तामात्रम् निर्विशेषम् निरीहम् सत्त्वम् साक्षात् विष्णुरध्यात्मदीपः, नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतम् गतेषु व्यक्ते व्यक्तम् कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः, योऽयम् कालस्तस्य ते व्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम्, निमेषादिर्वत्सरान्तो महीयांस्तम् त्वेषानम् क्षेमधाम प्रपद्ये, मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भयम् नाध्यगच्छत्, त्वत्पादाब्जम् प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति, सत्त्वम् घोरादुग्रसेनात्मजान्नस्त्राहित्रस्तान् भृत्यवित्रासहासि, रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषिष्ठाः जन्मते मय्यसौ पापो मा विद्यान् मधुसूदन समुद्विजे भवद्धेतो कंसादहमधीरथीः उपसंहर विश्वात्मन्नदो रूपम लौकिकम् शङ्खचक्रगदा पद्मश्रिया जुष्टं चतुर्भुजम् विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् बिभर्ति सोऽयं मम गर्भगो भूदहो नृलोकस्य विडम्बनं हि तत् श्रीभगवानुवाच त्वमेव पूर्वसर्गे भोः प्रश्ने स्वायम्भुवे सति तदायं सुतपा नाम प्रजापतिरकल्मषः युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः सन्नियम्येन्द्रियग्रामं ते पाथे परमं तपः वर्षवातातपहिम घर्मकालगुणाननु सहमानौ श्वासरोध विनिर्धूतमनोमलौ शीर्णपर्णानिलाहारावुपशान्तेन चेतसा मत्तः कामान् भीप्सन्तौ मदाराधनमीहतुः एवं वां तप्यतोऽस्तीव्रं तपः परमदुष्करम् दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः तदा वां परितुष्टोह ममुना वपुषा नघे तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः प्रादुरासं वरदराट् युवयोः कामदित्सया व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः अजुष्टग्राम्य विषया वनपत्यौ च दम्पती नवव्राथेऽपवर्गं मे मोहितौ मम मायया गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतं ग्राम्यान् भोगान् भुञ्जाथां युवां प्राप्तमनोरथौ अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् अहं सुतो वामभवं प्रश्निगर्भ इति श्रुतः तयोर्वां पुनरेवाह मदित्यामास कश्यपात् उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथवाम् जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति एतद्वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् श्रीशुक उवाच इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया पित्रो सम्पश्यतो सद्यो बभूव प्राकृतः शिशुः ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादायस सूतिका गृहात् यदा बहिर्गन्तुमियेष तर्यजा या योगमाया जनिनन्दजायया तया हृतप्रत्यय सर्ववृत्तिषु द्वास्थेषु पौरेष्वपि शायितेष्वथ द्वारस्तु सर्वापि हिता दुरत्यया बृहत्कपाटायस किल शृङ्खलैः ता कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः ववर्ष पर्जन्य उपांशुगर्जितः शेषोन्वगाद् वारि निवारयन् फणैः मघो निवर्षत्य सकृद्यमानुजा गम्भीरतो यौ घजवोर्मिफेनिला भयानका वर्तशताकुला नदी मार्गं ददौ सिन्धुरिवर्ष्यः पतेः नन्दव्रजं सौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया सुतं यशोदा शयने निधाय तत्सुतामुपादाय पुनर्गृहानगात् देवक्या शयनेऽन्यस्य वसुदेवोऽथ दारिकाम् प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः यशोदानन्दपत्नी च जातं परमबुध्यत न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।